इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन स्थायि कृषि प्रवर्धनाय प्रधानमन्त्री राष्ट्रिय कृषि विकास योजना तथा कृषि स्वावलम्बनाय खाद्य सुरक्षा प्राप्तये केवाई इति कृषोन्नति योजनायाः अनुमोदनं कृतम्। पीएमआरकेवीवाई इति कृषोन्नति योजना एकलक्ष कोटि रूप्यकाणां कुल प्रस्तावित व्ययेन कार्यान्विता भविष्यति। अस्मिन् पीएमआरकेवीवाई इति 75,000 कोटि रूप्यकाणि कृषोन्नति योजनायाः कृते 44,000-2,44,000 कोटि रूप्यकाणि च समाविष्टानि सन्ति। कृषि कृषक कल्याण विभागस्य प्रस्तावः अस्य मन्त्रालयस्य अन्तर्गतं संचालितानां सर्वेषां केन्द्र प्रायोजित योजनानां एतेषु द्विक्षत्र योजनासु युक्तीकरणार्थम् अनुमोदितः। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् मन्त्रिमण्डलसभायां गृहीताः निर्णयाः कृषकाणाम् आयवर्धनेन मध्यमवर्गीयजनानां खाद्य सुरक्षा सुनिश्चयेन च सम्बद्धाः सन्ति। सर्वकारेण 24,000-2,25,000 30,000-1,30,000 वर्ष पर्यन्तं खाद्य तैलानां तैलबीजानां विषये राष्ट्रियाभियानं 3,100,000-10,000 कोटि रूप्यकाणां परिव्ययस्य अनुमोदनं कृतमस्ति। आगामिषु 7 वर्षेषु तैलबीज निर्माणे भारतं स्वावलम्बनं कर्तुम् उद्दिश्य एतत् कृतमस्ति। नवदिल्ल्यां सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् नवानुमोदितः एनएमईओ तैलबीजः श्वेत सर्षपः कलायः इति मूंगफली सोयाबीनः सूर्यपुष्पः तिलादीनां प्रमुख प्राथमिक तैलसस्यानां उत्पादनं वर्धयितुं केन्द्रीक्रियते। हरियाणायां विधानसभा निर्वाचनस्य सर्वाः सज्जताः सम्पूरिताः सन्ति। 90-सदस्यात्मिकायाः विधानसभायाः कृते एकस्मिन्नेव चरणे श्वः मतदानं भविष्यति। मतगणना च अक्टूबर मासस्य 8 दिनांके जम्मूकश्मीर राज्येन सहैव भविष्यति। हरियाणायां निर्वाचनाय अभियाने ह्यः अन्तिमदिवसे विभिन्न दलीय नेतारः स्वीय प्रत्याशिनां कृते जनानां समर्थनम् अवाप्तुम् अनेकाः जनसभाः कुर्वन्ति। भाजपादलस्य वरिष्ठः नेता असमराज्यस्य मुख्यमन्त्री च हिमन्त बिश्व शर्मा पलवलक्षेत्रे जन आशीर्वादसभां सम्बोधितवान्। उत्तराखण्डस्य मुख्यमन्त्रिणा पुष्कर सिंह धामिना अपि जनसभा एका सम्बोधिता। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अद्य श्रीलंकादेशस्य आधिकारिकयात्रायां भविष्यति। गतसप्ताहे राष्ट्रपतिः अनुराग कुमार दिशनायकेन पदभार ग्रहणानन्तरं भारत श्रीलंका देशयोः मध्ये प्रथमः उच्चस्तरीयोपवेशनं भविष्यति। गतसप्ताहे राष्ट्रपतिः अनुराग कुमार दिशनायकेन कार्यभारं स्वीकृत्यानन्तरं कस्यापि विदेशमन्त्रिणः प्रथमा यात्रा भ्रमणं भवति। विदेशमन्त्री डॉ एस जयशंकरस्य यात्रा उभयोः देशयोः मध्ये द्विपक्षीय सम्बन्धान् इतोपि सुदृढं कर्तुं भविष्यति। संयुक्त अरब अमीरात देशस्य सारजाह क्रिकेट क्रीडांगणे महिलानां आईसीसी इत्येतस्यां 20-20 प्रतिस्पर्धायाः नवमस्य संस्करणस्य औद्घाटनिके द्वन्द्वे बांग्लादेशदलेन स्कॉटलैण्डदलं 16 धावनांकैः पराजितम् इति वार्ताः।